ओम नमो भगवते वासुदेवाय। अथ चतुर्दशोऽध्यायः। उद्धव उवाच, वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः, तेषां विकल्प प्राधान्य मुताहो एक मुख्यता। भवतो उदारितः स्वामिन् भक्तियोगो न पेक्षितः, निरस्य सर्वतः संगम येन त्वय्या विषयन्मनः। श्री भगवानुवाच, कालेन नष्टा प्रलये वाणीयं वेद संगीता, मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः, तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा, ततो भृग्वादयो गृह्णन् सप्त ब्रह्म महर्षयः, तेभ्यः पितृभ्यस्तत्पुत्रा देवदानवगुह्यकाः, मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारिणाः, किं देवाः किन्नरा नागा रक्षः किं पुरुषादयः, बह्व्यस्तेषां प्रकृतयो रजः सत्त्वतमो भुवः, याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा, यथा प्रकृति सर्वेषां चित्रा वाचः स्रवन्तिः, एवं प्रकृतिवैचित्र्यात् भिद्यन्ते मतयो नृणां, पारम्पर्येण केषाञ्चित् पाखण्डमतयो परे। मन्माया मोहितधियः पुरुषाः पुरुषर्षभ, श्रेयो वदन्त्यनेकान्तं यथा कर्म यथा रुचि, धर्ममेके यशस्यान्ये कामं सत्यं दमं शमम्, अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम्, केचिद् यज्ञतपोदानं व्रतानि नियमान् यमान्, आद्यन्तवन्त एवैषां लोकाः कर्म विनिर्मिताः, दुःखोदर्कास्तमो निष्ठाः क्षुद्रानन्दाः शुचार्पिताः, मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः, मयात्मना सुखं यत्तत् कुतः स्यात् विषयात्मनाम्, अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः, मया सन्तुष्टमनसः सर्वाः सुखमया दिशः, न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यं, न योगसिद्धेरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनान्यत्, न तथा मे प्रियतम आत्मयोनिर्न शङ्करः, न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान्, निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम्, अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः, निष्किञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः, कामैरनालब्धधियो जुषन्ति यत् तन्नैरपेक्ष्यं न विदुः सुखं मम, बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः, प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते, यथाग्निः तु समृद्धार्चिः करोत्यैधांसि भस्मसात्, तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नसः, न साधयति मां योगो न साङ्ख्यं धर्म उद्धव, न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता, भक्त्याहमेकया ग्रहय्यः श्रद्धयात्मा प्रियः सताम्, भक्ति पुनाति मन्निष्ठा स्वपाकानपि सम्भवात्, धर्म सत्यतयोपेतो विद्या वा तपसान्विता, मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनातिः, कथं विना रोमहर्षं द्रवता चेतसा विना, विना नन्दाश्रुकलया शुद्ध्येद्भक्त्या विनाशयः, वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च, विलज्ज उद्गायति नृत्यते च, मद्भक्तियुक्तो भुवनं पुनाति, यथाग्निना हे ममलं जहाति ध्मातं पुनः स्वं भजते च रूपम्, आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो मां, यथा यथात्मा परिमृज्यते सौ मत्पुण्यगाथा श्रवणाभिधानैः, तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जन सम्प्रयुक्तम्, विषयान् ध्यायतश्चित्तं विषयेषु विसज्यते, मामनुस्मरतश्चित्तं मय्येव प्रविलीयते, तस्मादसदभिध्यानं यथा स्वप्नमनोरथं हित्वा मयि समाधत्स्व मनोमद्भावभावितं, स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरतात्मवान्, क्षेमे विविक्तासीनश्चिन्तयेन्मामतन्द्रितः, न तथाश्च भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः, योषित्सङ्गात् यथा पुंसो यथा तत्सङ्गिसङ्गतः। उद्धव उवाच, यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम्। ध्यायेन्मुमुक्षुरे तन्मे ध्यानं त्वं वक्तुमर्हसि। श्रीभगवानुवाच, समासन आसीनः समकायो यथा सुखम्, हस्ता उत्सङ्गाधाय स्वनासाग्रकृते क्षणः, प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः, विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः, हृद्यविच्छिन्नमोऽहङ्कारं घण्टानादं विसोर्णवत्, प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम्, एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत्। दशकृत्वस्त्रिशवणम् मासादरवाग्यतानिलः, हृत्पुण्डरीकमन्तःस्थ मूर्ध्वनालमधोमुखम्, ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम्। कर्णिकायां न्यसेत् सूर्य सोमाग्नीनुत्तरोत्तरम्, वह्निमध्ये स्मरेद्रूपं ममैतद्ध्यानमङ्गलम्, समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजं, सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम्। समानकर्णविन्यस्त स्फुरन्मकरकुण्डलं, हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम्, शङ्खचक्रगदापद्मवनमाला विभूषितं, नूपुरैर्विलसत्पादं कौस्तुभप्रभयायुतं, द्युमत्किरीटकटककटिसूत्राङ्गदायुतं, सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखे क्षणम्। सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनोदधत्, इन्द्रियाणि इन्द्रियार्थेभ्यो मनसा कृष्यतन्मनः, बुद्ध्या सारथिना धीरः प्रणयेन्मयि सर्वतः, तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत्। नान्यानि चिन्तयेत् भूयः सुस्मितं भावयेन्मुखम्, तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत्। तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत्। एवं समाहितमतिर्मामेवात्मानमात्मनि, विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम्। ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः, संयास्यत्यासु निर्वाणं द्रव्यज्ञानक्रियाभ्रमः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादशस्कन्धे चतुर्दशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधि माम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।